एवं देव्या उक्तः नृपतिः पुरुं विषादं गतः। रामेण तु भूपतिः विश्वासितः यत् त्वया पूर्वम् उक्तं तद् अद्य त्वया कर्तव्यम्। नार्या सह वनं गमिष्यामि इति। तद् उक्त्वा राघवः सौमित्रिणा जानक्या च सहितः पूर्याः निर्गतः। बहुभिः जनैः तद् दृष्ट्वा रुदितम्।